एसा रेडियो नेपाल सम्प्रति समाचारः श्रीयन्ताम प्रवाचकः चन्द्रकान्त पौडेलः। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेशे स्थानीय स्तरेषु आवश्यकतायाः औचित्यस्य च आधारेण गठबन्धनं विधातुं नेतृभिः बलं दत्तमस्ति। कार्य सम्पादन समितेः गतदिने नेपाली कांग्रेस दलस्य सानिपास्थे केन्द्रीय कार्यालये उपविष्टे उपवेशे स्थानीय स्तराणाम् अवस्था विशेषतः स्थानीय स्तरेषु जनपद स्तरेषु च आधिक्येन ज्ञायते इत्यतः विषयोऽसौ प्राथमिकतया विमृष्टः इति नेतारः अवोचन्। नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत संचारकर्मीभ्यः प्रतिक्रियां ददत् महानगरोपमहानगरपालिकानां विषये नेपाली कांग्रेस दलस्य केन्द्रेण निर्णेष्यते, तदतिरिक्तं स्थानीय स्तरेषु स्थानीय वस्तुस्थितेः आधारेण समन्वयो विधातुं शक्यते इत्यभाषत। प्रवक्ता डाक्टर महत अवदत् समन्वयरहितेषु स्थानेषु गठबन्धनस्य दलानां मध्येऽपि मित्रवत् प्रतिस्पर्धा भविष्यति, परं प्रतिपक्षिणा नेकपाएमालेदलेन सह गठबन्धनं न भविष्यति। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः कथयति पञ्चदलीयं गठबन्धनं स्थानीय स्तराणां निर्वाचनात् संघस्य निर्वाचनं यावत् स्थास्यति। नवलपुर जनपदस्य देवचुली स्थाने ह्यः आयोजिते दलस्य प्रशिक्षण कार्यक्रमे अध्यक्षः प्रचण्डः अवदत् संविधानस्य विरोधिनः गणतन्त्रं समापयितुम् इच्छन्तीति विषये जनता ज्ञापनीया। अध्यक्षः प्रचण्डः अवाचत स्थानीय स्तराणां निर्वाचनं माओवादी दलस्य कृते युद्धं वर्तते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्षः माधव कुमार नेपालः कथयति स्थानीय स्तराणां निर्वाचने समान विचारवद्भिः दलैस्सह समन्वयो विधीयते। एकीकृत समाजवादी दलस्य कपिलवस्तु जनपदस्य बाणगंगा नगर समित्या ह्यो जीतपुरस्थाने आयोजिते कार्यक्रमे अध्यक्षो नेपालः निर्धारित दिनांके एव स्थानीय स्तराणां निर्वाचनं भवितेति कारणेन स्वस्य दलं अन्ये दलैस्सह सहकारेण विनापि एकाकिना योच्यते इत्यवाचत। अध्यक्षो नेपालः स्थानीय स्तराणां निर्वाचनम् आसन्नतरमस्तीत्यतः कार्यकर्त पूर्वकारेण सह अग्रे वर्धितुमपि अनुरुणत। ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषालः गठबन्धनस्य निर्देशनं परिपाल्य निर्वाचनं गन्तुम् अनुरुणति। ललितपुरे पूर्वेद्यो आयोजिते कार्यक्रमे मन्त्री भूषालः अतर्कयत् वर्तमान निर्वाचनं परिवर्तनाय अधुनावधि प्राप्ता उपलब्धिश्च संस्थागतीकृत्य अग्रे वर्धनार्थं च वर्तते। मन्त्री भूषालः अकथयत् संविधानस्य रक्षायै गठबन्धनं आवश्यकं सम्भूतम् एवं प्रतिगमनस्य संकटं पराजेतुमपि इदं सबलीकरणीयं भवति। नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली भाषते मधेशस्य विषयान् सम्बोधयितुम् एमाले दलं तत्परं वर्तते। सर्लाही जनपदीयेन नेकपा एमाले दलेन ह्यो मलंगवा स्थाने आयोजिते कार्यक्रमे अध्यक्षः ओली अवासत नागरिकतायाः समस्याम् अनुभूयमानायाः जनतायाः कृते एमाले दलेन नागरिकता विधेयके आनीते सत्यपि पारितं नाभवत्। ह्यैव नेपाल मुस्लिम इत्तेहाद संघटनेन नेपालगंज स्थाने आयोजिते कार्यक्रमे अध्यक्षः ओली अवदत् नेपाले सर्वासां जातीनां धार्मिक समुदायानां च मध्ये पारस्परिक सहिष्णुता सामाजिक सद्भावश्च वर्तेते। नेपाली कांग्रेस दलस्य महामन्त्री विश्वप्रकाश शर्मा कथयति कांग्रेस दलं स्थानीय स्तराणां निर्वाचने आवश्यकतायाः अनुसारेण समन्वयं विदधाति। नेपाली कांग्रेस दलस्य ठोरी काष्ठमण्डप सम्पर्क समित्या ह्यः काष्ठमण्डपे आयोजिते मेलने महामन्त्री शर्मा अवदत् संविधानस्य रक्षकैर्दलैस्सह कांग्रेस दलं स्थानीय स्तराणां निर्वाचने स्थानीय स्थितिम् आवश्यकतां च विलोक्य समन्वयं विदधाति। महामन्त्री शर्मा अब्रवीत् एमसीसी नामिकायाः अमेरिका देशीय सहयोग परियोजनायाः विषये जनतायां विस्तारितस्य भ्रमस्य निवारणम् आवश्यकं वर्तते। असौ अगदत् कांग्रेस दलं विदेशेष् विद्युतो निर्यातं विधाय देशं समृद्धं विधातुम् अपेक्षते। प्रमुख निर्वाचन आयुक्त दिनेश कुमार थवलिया निगदति निर्धारित दिनांक एव स्वच्छम स्वतंत्र निष्पक्षम च निर्वाचन भविष्य। यो जनकपुर धामनी आयोजिते संचाराभिमुखीकरण कार्यक्रम प्रमुख निर्वाचन आयुक्त थवलिया अवदत निर्वाचन से दिनांक सारयित न शक्यंते हेतु निर्धारित समय निर्वाचन आयोगेन स्वच्छम निष्पक्षम च निर्वाचन कारयिष्यते। निर्वाचन से क्रमभंगताया अवस्था नास्ति भाषमाण प्रमुख आयुक्त थवलिया अवदत ऐसमे वर्षे प्रतिनिधि सभायाः प्रदेश सभानां राष्ट्रपतेः उपराष्ट्रपतेश्च निर्वाचनं सम्पत्स्यते। परराष्ट्र मन्त्री डाक्टर नारायण खड्का निगदति नेपालस्य विकासाय जापान सर्वकारेण विहित सहयोग महत्वपूर्णो वर्तते। काष्ठमण्डपे ह्यः आयोजितं नेपाल जापान अल्मुनाई एसोसिएशन संघस्य अष्टचत्वारिंश वार्षिकोत्सवस्य समारोहं सम्बोधयन् असौ अवोचत् विपुल सहयोगदातृणां मध्ये जापान देशेन नेपालाय निःशपथं सहयोग विधीयमानो वर्तते। विपदि महामार्यां च जापान देशेन उल्लेखनीय सहयोग विधीयमानोऽस्तीति बोधयन् मन्त्री डाक्टर खड्का तत्रत्येन विकासेन नेपालेन बहु शिक्षितव्यम् इत्यत्र बलं प्रादात्। अन्तर्राष्ट्रिय विमानस्थलानि आगामिनो ज्येष्ठमासस्य पञ्चदश दिवसात् चतुर्विंशत्याम् एव घण्टासु सञ्चालयिष्यन्ते। वर्धमानानां विमानोड्डयनानां व्यवस्थापनाय नियामक निकायेन नेपाल नागरिकोड्डयन प्राधिकरणेन अन्तर्राष्ट्रिय विमानस्थलानि चतुर्विंशत्यामेव घण्टासु सञ्चालयितुं पूर्वकार्यं विहितमस्ति। त्रिभुवनान्तर्राष्ट्रिय विमानस्थलेन सह गौतम बुद्धान्तर्राष्ट्रिय विमानस्थलं निर्माणाधीनं पोखरा क्षेत्रीयान्तर्राष्ट्रिय विमानस्थलञ्च ज्येष्ठस्य पञ्चदश दिवसात् चतुर्विंशत्यामेव घण्टासु सञ्चालयिष्यन्ति इति प्राधिकरणेन ज्ञापितमस्ति। एवमेव आन्तरोड्डयनानि रात्रौ द्वादशवादनपर्यन्तं विधास्यन्ति। रात्रिकालीनोड्डयनयोग्येष् पूर्वमेचित सुदूरपश्चिमप्रदेशस्य धनगढ़ी पारन्तिकेष् विमानस्थलेष् अतःपरं रात्रौ द्वादशवादनपर्यन्तं सेवा सञ्चालयिष्यति। नागरिकोड्डयन प्राधिकरणेन भद्रपुर विराटनगर जनकपुर सिमरा भैरहवा नेपालगंज धनगढ़ी विमानस्थलानि प्रातः षड्वादनात् रात्रौ द्वादशवादनं यावत् सञ्चालयितुं निर्णीतं वर्तते। बालबालिका शान्ति क्षेत्र राष्ट्रिय अभियानेन गतदिने काष्ठमण्डपे आयोजिते राजनीतिक संवादे विभिन्नानां राजनीतिक दलानां नेतार स्थानीय स्तराणां निर्वाचनस्य घोषणापत्रे बालबालिकानां विषयेभ्यो महत्वं प्रदीयते इति अबोधयन् कार्यक्रमे नेपाल कम्युनिष्ट पार्टी एमाले दलस्य महासचिव शंकर पोखरेल राष्ट्रस्य भविष्यस्य उद्दीपनाय राज्यस्य ध्यानं बालबालिकाः प्रति केन्द्रीकर्तव्यमिति चर्चयन् स्वदलेन नैर्वाचनिक घोषणापत्रस्य माध्यमेन बालबालिकानां विकास संरक्षणयोः बलं प्रदीयते इत्यभाषत। कार्यक्रमे नेपाली कांग्रेस दलस्य सहमहामन्त्री जीवन परियार नेकपा माओवादी केन्द्रस्य नेता पूर्व मन्त्री च शक्तिबहादुर बस्नेत च विचारं प्राकटयताम्। म्याग्दी मुस्ताङ जनपदयोः राष्ट्रिय राजमार्गेण सह योजकः बेनी मालडुंगा मार्गखण्डः स्तरोन्नत्यै ह्यस्तनदिवसात् प्रतिदिनं पञ्चघण्टावधि पिधापितो वर्तते। मालडुंगा बेनी मार्गखण्डस्य कार्यं सहजरूपेण अग्रे वर्धयितुम् अस्यैव वैशाख मासस्य पञ्चविंशं दिवसं यावत् पञ्चघण्टावधि यातायात साधनानां सञ्चालनं पिधापितं वर्तते। दिवा एकादशवादनतः अपराह्नस्य चतुर्वादनं यावत् मालडुंगा बेनी मार्गखण्डः पिधापिता इति बेनी जोमसोम कोरला मार्गायोजनया ज्ञापितं वर्तते। आराष्ट्रम ह्यः अतिरिक्तेष् नवस् जनेष् कोरोना विषाणोः संक्रमणं पुष्टीभूतं वर्तते। ह्यैव चतुश्चत्वारिंशत् जनाः कोरोना विषाणोः संक्रमणात् मुक्ताः सन्ति। ह्यस्तनावधि संक्रमणान् मुक्तानां जनानाम् अनुपातः प्रतिशतं 0.7 ह्यः 30,889 जनाः कोरोना प्रतिरोधी टीकाकरणम् आहितवन्त इति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। वन्यजन्तु सप्ताहस्य अवसरं लक्ष्यीकृत्य कञ्चनपुरस्य शुक्लाफाटा राष्ट्रिय निकुञ्जे द्वादश श्रृङ्गीणां मृगाणां गणना विधीयते। निकुञ्ज प्रशासनेन अद्यतः द्वादश श्रृङ्गिणो मृगान् गणयितुं पूर्वकार्यं विहितमस्ति। आसन्न दशवर्षेभ्यः शुक्लाफाटा राष्ट्रिय निकुञ्जे द्वादश श्रृङ्गीणां मृगाणां नियमिततया गणना विधीयमाना वर्तते इति समाचाराः।